इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। वैश्विक अनिश्चिततायाः आर्थिक समाह्वानानां च मध्ये ब्रिक्स देशाः रचनात्मिकां भूमिकां निर्वहन्तीति भारतेन दृढतया प्रतिपादितम्। नवदिल्ल्याम् अद्य द्विदिवसीय ब्रिक्स विदेश मन्त्रिणां सम्मेलनस्य आरम्भः अभवत्। श्वः प्रधानमन्त्रिणः नरेन्द्रमोदिनः आबुधाबी यात्रायाः समये भारत यूएई देशौ द्वैपाक्षिक सम्बन्धान् अग्रिमस्तरे नयितुं सज्जते स्तः। कांग्रेसदलस्य नेता वी डी सतीशन वर्यः केरलम् राज्यस्य मुख्यमन्त्री भविष्यति। भारतस्य निर्वाचनायोगेन स्पष्टं यथार्थञ्च मतदातृसूचीं सुनिश्चेतुं षोडश राज्येषु त्रिषु केन्द्रशासितप्रदेशेषु च एसआईआर इत्यस्य तृतीयचरणस्य घोषणा कृता। अपि च अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः तथा चीनदेशस्य राष्ट्रपतिः शी चिनफिंग इत्येषः च बीजिंग नगरे महत्वपूर्णं वार्तालापं कृतवन्तौ। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्यां ब्रिक्स विदेश मन्त्रिमण्डलस्य विदेश मन्त्रिभिः सह मेलनं कृतम्। रूस देशस्य विदेशमन्त्री सर्गेई लावरोवः, ईरान देशस्य विदेशमन्त्री अब्बास अराघची, दक्षिणाफ्रीका देशस्य विदेशमन्त्री रोनाल्ड लामोला, ब्राजील देशस्य विदेशमन्त्री माउरो वियेरा इत्यादयः अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवन्तः। इदमुपवेशनं नवदिल्ल्यां प्रचलिते ब्रिक्स विदेश मन्त्रिमण्डलस्य सम्मेलनानन्तरम् अभवत्। ततः पूर्वं विदेशमन्त्री डॉ एस जयशंकरः स्वस्य प्रारम्भिके भाषणे उक्तवान् यत् वैश्विक व्यवस्थायाः केन्द्रस्थाने शान्तिः सुरक्षा चास्ति। सः अवदत् यत् अद्यतनीयाः संघर्षाः केवलं संवादस्य कूटनीतेः च महत्वं प्रदर्शयन्ति। सः अवधानं दत्तवान् यत् वर्तमानसंघर्षाः, आर्थिक अनिश्चितताः, व्यापारस्य तन्त्रज्ञानस्य ऋतुदशा समाह्वानानि च वैश्विक परिदृश्यं निर्मीयन्ते, तथा च अस्मिन् विषये ब्रिक्सदेशाः रचनात्मक स्थिरतां च आनेतुं महत्वपूर्णां भूमिकां निर्वहन्ति। डॉ जयशंकरः सहभागिदेशानां तेषाम् उपस्थित्यै ब्रिक्स संरचनायाः अन्तः सहकारं सुदृढीकरणाय निरन्तरं प्रतिबद्धतायै च धन्यवादं प्रददात्। ऊर्जायाः, आहारस्य, उर्वरकस्य, स्वास्थ्यसुरक्षायाः च विषये नैके देशाः निरन्तरं समाह्वानानां सम्मुखीकरणं कुर्वन्तः सन्तीति मन्त्रिणा उक्तम्। श्वः शुक्रवासरे आबुधाबीनगरे यदा प्रधानमन्त्रिणः नरेन्द्रमोदिनः यूएई देशस्य राष्ट्रपतिना शेख मोहम्मद बिन जायद अल नाह्यान इत्यनेन सह मेलनं भविष्यति, तदा भारत यूएई देशयोः मध्ये दृढं सहभागित्वम् अग्रिमस्तरे नयितुं सज्जतास्ति। उभौ नेतारौ समग्र सामरिक सहभागित्वस्य पूर्णव्याप्तिः समीक्षितवन्तौ, तथा च अनेकेषां महत्वपूर्णानां सन्धेः आदानप्रदानस्य साक्षिभूतौ। औपचारिक सामरिक रक्षा सहभागितायाः कृते कार्यं कर्तुम् आशयपत्रम् एव सर्वाधिकं परिणामात्मकम् आसीतीति द्वैपाक्षिक सुरक्षा सम्बन्धेषु प्रमुखं सोपानमासीत्। दशदिनानि यावत् प्रचलितम् उच्चनाटकीयताम् उत्कण्ठां च समाप्य कांग्रेसदलेन अद्य वी डी सतीशन इत्यस्य नाम केरलम् राज्यस्य नूतन मुख्यमन्त्रिरूपेण घोषितम्। एषा घोषणा नवदिल्ल्यां वार्ताहर सम्मेलने कांग्रेसनेतारः अजयमाकनः, मुकुलवासनिकः, दीपादास मुंशी इत्येताः कृतवन्तः। घोषणया सह कांग्रेसनेतृत्वे यूडीएफ राज्ये सर्वकारस्य निर्माणं कर्तुं प्रवर्तयिष्यति, येन पक्षद्वन्द्वः समाप्तः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य अवदत् यत् NDRF इति राष्ट्रियापत प्रतिक्रियाबलेन 20 वर्षाणाम् अल्पावधौ सम्पूर्णे देशे 44,00,000 कोटिजनानां विश्वासम् अर्जितम्।
NDRF को राष्ट्रपति निशान का सम्मान दिया गया, वो हम सबके लिए गौरव और प्रतिष्ठा की बात। ये सम्मान NDRF के समस्त बल के सेवा, साहस, शौर्य और समर्पण के संचित गुणों का सम्मान है। 20 साल के कम अंतराल के अंदर आपदा बचाव के क्षेत्र में भारत को वैश्विक नक्शे पर रखने का काम NDMA और NDRF ने किया है।
गृहमन्त्रिणा अधोरेखितं यत् यत्र यत्र NDRF दलस्य कर्मचारिणः सम्पूर्णे विश्वे गतवन्तः तत्र तत्र ते जनानां प्रेमं विश्वासं चार्जितवन्तः। भारतस्य निर्वाचनायोगेन विशेष पुनरीक्षण संशोधनस्य SIR इत्यस्य तृतीयचरणस्य घोषणा कृता यत् 16 राज्येषु 3 केन्द्रशासित प्रदेशेषु च चरणबद्धरूपेण संचालितं भविष्यति। अस्मिन् चरणे आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, हरियाणा, झारखण्डः, कर्णाटकः, महाराष्ट्रः, मणिपुरः, मेघालयः, मिजोरमः, नागालैण्डः, ओडिशा, पंजाबः, सिक्किमः, त्रिपुरा, तेलंगाना, उत्तराखण्डेति सम्मिलितानि सन्ति। दिल्ली, चण्डीगढ़, दादरा नगर हवेली, दमन दीव इत्येताः केन्द्रशासित प्रदेशाः अपि सन्ति। मतदातृसूची संशोधन प्रक्रियायाम् एतत् महत्वपूर्णं सोपानमस्ति, यस्योद्देश्यं सम्पूर्णे देशे स्पष्टं यथार्थञ्च मतदातृसूचीं सुनिश्चेतुं भवति। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन चीनदेशस्य राष्ट्रपतिना शी चिनफिङ्ग इत्यनेन सह अद्य वीचिङ्ग नगरे वार्तालापः कृतः। व्यापारस्य, तन्त्रज्ञानस्य, क्षेत्रीय सुरक्षायाः च विषये उद्विग्नतायाः मध्येऽपि उभौ नेतारौ परस्पर विरोधस्य विषये, सहकारस्य विषये अवधानं दत्तवन्तौ। द्वितीय राष्ट्रपति कार्यकाले ट्रम्पस्य चीनदेशस्य एतत् प्रथमं भ्रमणमस्ति। व्हाइट हाउस इत्यस्यानुसारं ऊर्जा मुक्त प्रवाहस्य समर्थनाय होर्मुज जलसन्धि अवश्यमेव उद्घाटिता भवेत् इति उभौ पक्षौ स्वीकृतवन्तौ। अस्मिन् उक्तं यत् राष्ट्रपतिना शी वर्येण सह ट्रम्पस्य मेलनम् उत्तममासीत्। उपवेशनानन्तरं जनसमूहं सम्बोधयन् चीनदेशस्य राष्ट्रपतिः शी चिनफिङ्ग वर्यः चीन अमेरिका देशौ प्रतिद्वन्द्विनौ न भूत्वा सहभागिनौ भवेताम् इति उक्त्वा सङ्घर्षस्योपरि सहकारस्य पोषणस्य विषये अवधानं प्रदत्तवान्। सः उभयोः राष्ट्रयोः मतभिन्नतायाः अपेक्षया सामान्याभिलाषाः अधिकाः सन्तीति अवोचत्, तथा च द्वैपाक्षिकसम्बन्धेषु नूतनस्य अध्यायस्य आह्वानम् अपि अकरोत्। भारत ऋतुविभागेन अद्य पश्चिम मध्यप्रदेशस्य, पश्चिमपूर्व राजस्थानस्य, गुजरातस्य, महाराष्ट्रस्य च केषुचित् भागेषु तीव्र उष्णतरङ्गस्य पूर्वानुमानं प्रकटितम्। दिने कोंकण गोवा प्रदेशयोः उष्णार्द ऋतुः भवितुम् अर्हति। अद्य उत्तर पूर्व भारतस्य केषुचित् भागेषु, अण्डमान निकोबार द्वीप समूहेषु, केरलम राज्ये, माहे प्रदेशे, पश्चिम बंग प्रदेशे, सिक्किमे, तमिलनाडु राज्ये, पुद्दुचेरी प्रदेशे, करैक्कल प्रदेशे च प्रचण्ड वृष्टिः भविष्यति इति विभागेन पूर्वानुमानितम्। तटीय कर्णाटकस्य, झारखण्डस्य, उत्तरान्तरिक कर्णाटकस्य च केषुचित् स्थानेषु अद्य वृष्टेः सम्भावनापि विद्यते। IPL इति इण्डियन प्रीमियर लीग क्रिकेट क्रीडायाम् अद्य सायंकाले धर्मशाला नगरस्य हिमाचल प्रदेश क्रिकेट एसोसिएशन क्रीडांगणे पंजाब किंग्स दलम् अद्य मुंबई इण्डियंस दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। अन्ते मुख्य वार्ताः पुनः एकवारम्। वैश्विक अनिश्चितताया, आर्थिक समाह्वानानां च मध्ये ब्रिक्सदेशाः रचनात्मिकां भूमिकां निर्वहन्तीति भारतेन दृढतया प्रतिपादितम्। श्वः प्रधानमन्त्रिणः नरेन्द्रमोदिनः आबुधाबी यात्रायाः समये भारत UAE देशौ द्वैपाक्षिक सम्बन्धान् अग्रिमस्तरे नेतुं सज्जते स्तः। कांग्रेस दलस्य नेता VD सतीशन वर्यः केरलम राज्यस्य मुख्यमन्त्री भविष्यति इति वार्ताः।